लेसन 31, एक्सरसाइज 1, पेजेस 258 एंड 259। अस्मिन् वने मार्गम कर्तुम तरुण लुनीहि, किम हस्ताभ्याम तरुण लुनामि, मा हस्ताभ्याम परशुना लुनीहि। गते मासे लूना मे केशा अद्य पुनर्जाताः, दत्त्वा सहस्रम मूर्खाणा मेकम क्रीणासि पंडितम्, सुवर्ण शतेन वयममुमश्वम क्षिप्रम क्रीणीमहे, वायुना धूयमानो नलो वनम दहति, यो यजति स देवान् प्रीणाति चि ऋत्विजो मन्यन्ते, तन्नेति बुद्धो ब्रूते किम सत्यम्। गंगा नद्या जलेन पुनः पुनः क्षालितेष्वेषु पात्रेषु ब्राह्मणैरन्नमस्यते, अस्मिन् महति दुर्भिक्षे धान्यम् न लभ्यते, ततः किमश्नाम कथम च जीवनम् धारयाम। स धीवरो गृह्णात्तम् मत्स्यम् हस्तेन, स मत्स्यस्तस्य हस्तादुत्पत्य नद्यामपतत्। धनुषा मृगम् हन्तुम् न जानासि, तस्मान्न शक्यस्त्वया मृगोऽयम् ग्रहीतुम्। आलाने गृह्यते गजः, अश्वो वल्गासु गृह्यते, हृदये गृह्यते नारी। कन्याया विद्यावान् पिता न गृह्णीयाच्छुल्कम्, स कविर्ग्रथ्नाति सुवचनैः शास्त्राणि काव्यानि च। वाल्मीकिर्नाम कवि रामायण काव्यम् ग्रथितवान्, व्यासश्च महाभारत काव्यम्। रुद्रो देवा नवददहं वरं वृणै, वृणीष्वेति ते भाषन्त। दमयन्त्या स्वयंवरकाले बहवो नृपा मामियं वृणीत, मामियं वृणीतेति मन्यमानाः स्वासनेष्वसीदन्। कथं देवान् जानीयां, कथं वा विद्यां नलं नृपमिति दमयन्त्यचिन्तयत्। किमर्थम् क्लिश्नासि भद्रे इति रुद्रः पार्वतीमब्रवीत्, अस्मिन् हिमवत शृङ्गे वयम् सिंहम् बध्नीयाम। हे कृष्ण, भंस्यन्ति त्वाम् नागा भोगैः, बहवो ज्ञान तपसा पूता मद्भावमागताः, इतीश्वरो ब्रवीति। पुत्रानिव सप्रियान् भ्रातृ नपुष्णात्, प्रजनयन्ति पुत्रान् नार्यो दुःखेन महता, पुष्णन्ति चापि महता स्नेहेन। तेजसा तस्य दिव्येन चक्षूंषि मुषितानि वः, एकोऽपि सिंहः साहस्रम् यूथम् गजानाम् मथ्नाति, वृक्षाः वायुम् स्तभ्नन्ति। प्राच्याम् दिशि देवाः सोममक्रीणन्, तस्माज्जनैः सोमः प्राच्याम् दिशि क्रियते। यस्य कस्य तरोर्मूलम्, येन केनापि मिश्रितम्, यस्मै कस्मै प्रदातव्यम्, यद्वा तद्वा भविष्यति।